एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री बालेन्द्र शाह सुनसरी जनपदस्य देवानगंज स्थाने सिराहा जनपदस्य विभिन्नेष् स्थानेष् च दुरापन्नास् घटनास् दुःखम् अभिव्यज्य कतिपयेष् जनपदेष् उत्पन्नानि अशान्त वातावरणानि प्रति सर्वकारः पूर्णतः गभीरः संवेदनशीलश्चास्तीति उक्तवान् वर्तते। ह्यो राष्ट्रस्य नाम्नि सम्बोधयन् प्रधानमन्त्री शाह नेपालस्य संविधानेन प्रत्येकं नागरिकेभ्य स्वस्व धर्म संस्कृति परम्पराणां विषयेभ्यो मौलिकाधिकार प्रदत्तोऽस्ति इति चर्चयन् सांविधानिक दायित्वस्य निर्वहणाय सर्वकार पूर्णत प्रतिबद्धोऽस्ति इति अवोचत्। प्रधानमन्त्री शाह अस्यां दुःखदायां घटनायां निपत्य मृतकान् नागरिकान् जयप्रकाश मेहता इत्यमुं ओम प्रकाश मेहता इत्यमुं गणेश यादवं च प्रति भावपूर्ण श्रद्धांजलिं समर्प्य शोक संतप्त परिवारजनेष् सर्वकारस्य पक्षतः गभीर समवेदना व्यक्तास्ति। घटनायाः अनुपदमेव सर्वैः सुरक्षा निकायैः तत्कालमेव घटनास्थलं प्राप्य वातावरणस्य सहजीकरणं शान्तिः सुरक्षायाश्च सुनिश्चयनं च नैरन्तरेण जायमाने स्त इति प्रधानमन्त्री शाह स्पष्टीकृतवान् वर्तते। सर्वै मिलित्वा दायित्ववाहिनां नागरिकाणां भूमिकां निर्वाह्य जीवनं यापनीयम् इति प्रधानमन्त्री शाह उक्तवान्। राष्ट्रपतिना रामचन्द्र पौडेलेन सह प्रधानमन्त्रिणा बालेन्द्र शाहेन ह्य मेलवार्ता विहिता अस्ति। देशस्य विभिन्नेष् भागेष् सम्भूतानां घटनानां विषये राष्ट्रपतिना पौडेलेन प्रधानमन्त्रिणः समक्षं जिज्ञासितमासीत्। राष्ट्रपतेः पौडेलस्य समक्षं प्रधानमन्त्री शाह देशस्य शान्ति सुरक्षां सुदृढां विधातुं सर्वकारेण विहितस्य प्रयासस्य विषये ज्ञापितवान्। तदवसरे राष्ट्रपतिः पौडेलः सर्वान् पक्षान् समानीय संयमपूर्वकं स्थितिं नियमयितुं सद्भावं स्थापयितुं च परामृष्टवान्। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन सुनसरी जनपदस्य देवानगंज ग्रामपालिकायाः कप्तानगंज प्रभृतिषु क्षेत्रेष् सम्प्रत्येव दृष्टां विषमां परिस्थितिं प्रति गभीरां चिन्तां प्रकटय्य बहुकालात् विद्यमानं सामाजिक धार्मिक जातीय सद्भावं सहिष्णुतां राष्ट्रिय एकतां च संरक्षितुम् आह्वानं विहितमस्ति। राष्ट्रपतिना पौडेलेन विज्ञप्तिं प्रकाश्य घटनायाः अनन्तरम् उत्पन्नां विषमां परिस्थितिं यथाशीघ्रं सामान्यां विधाय शान्ति सुरक्षां जनजीवनं च सामान्यावस्थायां प्रत्यावर्तयितुं सर्वकारः सफलो भविष्यति इति विश्वासः व्यक्तोऽस्ति। राष्ट्रिय सुरक्षा परिषदः त्रिचत्वारिंशत्तमेन उपवेशेन देशस्य समग्र सुरक्षावस्थायाः समीक्षां विधाय सामाजिक सद्भावं राष्ट्र एकतां च सुनिश्चेतुं सर्वेषां सुरक्षा निकायानां सम्बद्धानां पक्षाणां च समन्वयं प्रभावपूर्णं विधातुं निर्णीतमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य प्रधानमन्त्रिणः राष्ट्रिय सुरक्षा परिषदः अध्यक्षस्य च वालेन्द्र शाहस्य अध्यक्षतायाम् उपविष्टे देशस्य समग्रायाः शान्ति सुरक्षायाः सेव श्रावण मासस्य दशमे दिवसे सुनसरी जनपदे सम्भूतायाः घटनायाश्च विषयेष् समीक्षा विहिता अस्ति इति ज्ञापितं वर्तते। उपवेशे न भविष्यति एतादृशानां घटनानां दुरावर्तनस्य निवारणाय सर्वैः सुरक्षा निकायैः सम्बद्ध पक्षैस्सह समन्वयं विधाय सामाजिक सद्भावं स्थापयितुं निर्णीतमस्ति। एवमेव विपदां घटनासु अन्वेषणस्य उद्धारस्य सहयोगस्य च कार्याणि समये एव प्रभावपूर्णरूपेण संचालयितुं सम्बद्धै निकायै सह समन्वयं सुदृढं विधातुं च उपवेशे विमृष्टमस्ति इति ज्ञापितं वर्तते। उपवेशे सहभागी परराष्ट्रमन्त्री शिशिरखनालः राजनीतिकदलानां स्थानीय निकायानां सुरक्षा निकायानां च संयुक्तेन प्रयासेन सुनसरी जनपदस्य अवस्था सहजा जायमाना अस्ति इति विज्ञापितवान् आसीत्। राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामिछाने विदेन वर्तमान परिस्थितेः विषये कोशी मधेश प्रदेशयोः सांसदैश्चः विमृष्टमस्ति। सीमाप्रासादवर्तिनी राष्ट्रोपा दलस्य संसदीय दलस्य कार्यालये ह्य सम्भूते विमर्शने सभापतिना लामिछाने विदेन जनैस्सह संवादं कर्तुं जनपदेष् सद्भावं स्थापयितुं च सांसदः निर्दिष्टः सन्ति इति ज्ञापितं वर्तते। मधेश सर्वकारस्य मन्त्रिपरिषदः उपवेशेन प्रदेशस्य शान्ति सुरक्षायाः विद्यमानायाः अवस्थायाः समीक्षां विधाय नागरिकाणां जीवनधनयोः सुरक्षां सार्वजनिक सम्पदः संरक्षणं विधेये प्रभावपूर्णं क्रियान्वयनं च उच्च प्राथमिकतायां स्थापयितुं निर्णीतमस्ति। जनकपुरधामनि ह्यः मुख्यमन्त्रिणः कृष्णप्रसाद यादवस्य अध्यक्षतायाम् उपविष्टेन मन्त्रिपरिषदः उपवेशेन पश्चात्तन दिवसेष् प्रदेशस्य विभिन्नेष् जनपदेष् सम्भूतानां सामाजिकार्थिक सुरक्षा सम्बद्धानां घटनानां विषये समीक्षा विहिता आसीत्। सुनसरी जनपदस्य सिराहा जनपदस्य च विभिन्नेष् स्थानेष् सम्भूतायाः घटनायाः अनन्तरं उत्पन्नायाः परिस्थितेः नियन्त्रणाय सुरक्षा व्यवस्था सुदृढा विहिता अस्ति। कतिपयेष् स्थानेष् च स्थानीय प्रशासनेन निषेधाज्ञा क्रियान्विता वर्तते। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः सुनसरी जनपदस्य देवानगंज स्थाने सम्भूतायाः घटनायाः विषये सर्वकारस्य ध्यानाकर्षणं विधाय समये एव शान्ति सुव्यवस्थायाः कृते कार्यं कर्तुं याचना विहिता अस्ति। उपवेशे प्रतिपक्षिदलानां सांसदैः सुनसरी जनपदे सम्भूतायाः हिंसात्मक घटनायाः दायित्वं सर्वकारेण वोढव्यम् इत्युक्त्वा घटनायाः सत्यं तथ्यं च अन्विष्य दोषिणो दण्डयितुं पीडितपरिवारेभ्य क्षतिपूर्तिं प्रदातुं च याचना उपवेशे पूर्व प्रधानमन्त्री नेपाली कम्युनिष्ट दलस्य संयोजकश्च पुष्पकमल दाहाल प्रचण्डः सुनसरी जनपदे सम्भूतायाः घटनायाः अनुसन्धानं विधातुं याचनां विहितवान्। उपवेशे नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीया वासना थापा, नेकपा एमाले दलस्य पद्मा अर्यालः, नेपाली कम्युनिष्ट दलस्य गोपाल पराजुली, श्रम संस्कृति दलस्य आरएन राई, राष्ट्रिय प्रजातन्त्र दलस्य खुशबू ओली च सुनसरी जनपदे सम्भूतायाः घटनायाः विषये सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। प्रतिनिधिसभायाः स्तनोपवेशेऽपि प्रतिपक्षिदलानां सांसदैः प्रधानमन्त्रिणा बालेन्द्र सहायेन देशस्य सीमाक्षेत्रस्य विषये प्रदत्ताम् अभिव्यक्तिं संशोधयितुं याचना विहिता। प्रतिनिधिसभायाः उपवेशेन अर्थसम्बद्धान् कतिपय नेपालाधिनियमान् संशोधयितुं निरसयितुं च निर्मितम् एतद् विक्रमवश्यम् विधेयकम् प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषितमस्ति। उपवेशेन प्रतिनिधिसभायाः पूर्व सदस्यस्य संविधानसभा सदस्यस्य च गोपाल मानश्रेष्ठस्य निधनं प्रति शोक प्रस्तावः पारितीकृतोऽस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन निर्वाचन आयोगस्य प्रमुखायुक्त पदे मानबहादुर कार्की नियुक्तोऽस्ति। राष्ट्रपतिः पौडेलः नेपालस्य संविधानस्य पञ्चचत्वारिंशदुत्तर द्विशततम धारायाः द्वितीयोपधारायाः अनुसारेण सांविधानिक परिषदः परामर्शेन कार्की इत्यमुं नियुक्तवान् इति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश शाकेन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। एवमेव निर्वाचन आयुक्त पदे गुरूप्रसाद वाग्ले, डॉक्टर राजीव सुब्बा च नियुक्तौ स्तः इति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। नवनियुक्तेन प्रमुख निर्वाचन आयुक्तेन निर्वाचन आयुक्ताभ्यां च एव शपथः गृहीतोऽस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन सह सभामुखेन डोलप्रसाद अर्यालेन ह्य मेलवार्ता विहिता अस्ति। राष्ट्रपति भवने सम्भूते मेलने सभामुखेन अर्यालेन देशस्य सामयिक राजनीतिकवस्थायाः संसदीय गतिविधेश्च विषयेष् विज्ञापितमस्ति इति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते।